सुसयित्तम् निमिश्रयन्द्रतो मे स्तो मे ब्रह्मणि सस्यमानमुक्ते यद्वा युक्ताभ्याम् मघवङ्गरेभ्याम् बिभ्रद्वज्रम् बाह्वोरिन्द्रयासि यद्वा दिवि वार्ये सुष्मीमिन्द्रवृत्रहत्येव शिशूरसाधौ यद्वा रक्षस्य बिभ्युषो अविभ्यदरन्धयश्रद्धदयिन्द्रदस्यून् पादासुदलमिन्द्रो अस्तु सोमम् मृणेनीरुग्रोजरितारभूति कर्ता वीराय सुष्माय भूलोकम् दातावतस्तु मते कीरयेचित् गन्देयाम् दिशमराहरिभ्याम् बभ्रिर्वज्रम् पविः सोमम् ददीर्गाः कर्ता वीरम् नर्यम् सर्ववीरम् श्रोताहवम् कृणतस्तोमवाहाः अस्मै भयम् यद्भाव न तद्विवेश्वयन्द्रायो नः प्रदिवो अपस्तः सुते सोमेऽस्तु मसि संसदुग्धेन्द्राय ब्रह्मवर्धनम् यथा सत् ब्रह्माणि च गृहे वर्धनानि तावत्त इन्द्रमतिभिर्विष्मः सुते सोमे सुतपाः सन्तमानिराञ्ज्याक्रिया स्ववक्षणानि यज्ञैः स नो बोधिपुरोला सम्भ्रानः पिबातु सोमम् गोरुजीकमिन्द्र येदम् बर्हिर्यजमानस्य दीदोरम् गृधित्वा यतौ लोकम् समन्दस्वाह्यनजोषमुग्रप्रत्वा जज्ञासा जिमे अश्रुवन्तु प्रेमे हवादः पुरुहूतमस्मे आत्मेयम् धीरवसैन्द्रयम्याः संवत्सकाय संयथा सुतेषु सोमेभिरीम् प्रणता भोजमिन्द्रम् कुवित्तस्मा असति नो भराजयदृष्मिन्द्रो वसे मृधाति ये वेदिन्दस्तुते अस्ताभि सोमे भरद्वाजे सुक्षयतिन्मघोनाः असद्यथा जरित्र उदसूरीरिन्द्रो राजो विश्ववारस्य दाता।